अथैकत्रिंशः सर्गः। एवं बहुविधां चिन्तां चिन्तयित्वा महामतिः संश्रवे मधुरं वाक्यं वैदेह्याव्याजहारः। राजा दशरथो नाम रथकुञ्जरवाजिमान् पुण्यशीलो महाकीर्तिरिक्ष्वाकूणां महायशाः। राजर्षीणां गुणश्रेष्ठस्तपसा च ऋषिभिः समः। चक्रवर्तिकुले जातः पुरन्दरसमो बले अहिंसारतिरक्षुद्रो घृणी सत्यपराक्रमः। मुख्यश्चेक्ष्वाकुवंशस्य लक्ष्मीवान् लक्ष्मीवर्धनः। पार्थिवव्यञ्जनैर्युक्तः पृथुश्रीः पार्थिवर्षभः। पृथिव्यां चतुरन्तायां विश्रुतः सुखदः सुखी। तस्य पुत्रः प्रियो ज्येष्ठस्ताराधिपनिभाननः। रामो नाम विशेषज्ञश्रेष्ठः सर्वधनुष्मताम्। रक्षिता स्वस्य वृत्तस्य स्वजनस्यापि रक्षिता। रक्षिता जीवलोकस्य धर्मस्य च परन्तपः। तस्य सत्याभिसन्धस्य वृद्धस्य वचनात् पितुः। सभार्यः सह च भ्रात्रा वीरः प्रव्रजितो वनम्। तेन तत्र महारण्ये मृगयां परिधावता। राक्षसा निहताः शूरा बहवः कामरूपिणः। जलस्थानवधं श्रुत्वा निहतौ खरदूषणौ। ततस्त्वमर्षापहृता जानकी रावणेन तु। वञ्चयित्वा वने रामं मृगरूपेण मायया समार्गमाणस्तां देवीं रामः सीतामनिन्दिता। आससादवने मित्रं सुग्रीवं नाम वानरम्। ततः सवालिनं हत्वा रामः परपुरञ्जयः। आयच्छत्कपिराज्यं तु सुग्रीवाय महात्मने। सुग्रीवेणाभिसन्दिष्टा हरयः कामरूपिणः। दिक्षु सर्वासु तां देवीं विचिन्वन्तः सहस्रशः। अहं सम्पातिवचनाच्छतयोजनमायतम्। तस्या हेतोर्विशालाक्ष्याः समुद्रं वेगवान् प्लुतः। यथा रूपां यथा वर्णां यथा लक्ष्मीं च निश्चिताम्। अश्रौषं राघवस्याहं सेयमासादिता मया। विररामैव मुक्त्वा स वाचं वानरपुङ्गवः। जानकी चापि तच्छ्रुत्वा विस्मयं परमं गता। ततः सा वक्रकेशान्ता सुकेशी केशसंवृतम्। उन्नम्य वदनं भीरुः शिंशपामन्ववैक्षत। निशम्य सीतावचनं कपेश्च दिशश्च सर्वाः प्रदिशश्च वीक्ष्य। स्वयं प्रहर्षं परमं जगाम सर्वात्मना राममनुस्मरन्ति। सा तिर्यगोर्ध्वं च तथा ह्यधस्तान्निरीक्षमाणा तमचिन्त्य बुद्धिम्। ददर्श पिङ्गाधिपतेरमात्यं वातात्मजं सूर्यविमोदयस्थम्। इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे एकत्रिंशः सर्गः।